ओम श्री कृष्ण ब्रह्मणे नमः। श्रीमद् भगवद् गीता अथ प्रथमाध्यायः अर्जुन विषादयोगः। धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे
समवेतायुरुत्सवः मानता पाण्डवाद्यैव किमकुर्वत सञ्जय। सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं योढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्। पश्येतां पाण्डुपुत्राणाम् आचार्य महतीं च मुं योढां द्रुपदपुत्रेण तव शिष्येण धीमता। अत्र सूरा महेश्वासाः भीमार्जुन समायुधि ेतुश्चेकितानः काशीराजश्च वीर्यवान्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्यश्च विक्रान्तः उत्तमौजश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः। अस्माकं तु विशिष्टा एतानि बोधद्विजोत्तमा भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अस्य धामाविकर्णश्च सौमदत्तिस्त दैव च
अन्ये च बहवः सूराः मदत्ते त्यक्त जीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।
अपर्याप्तं तदस्माकं बलम् भीष्माभिरक्षितम्
पर्याप्तम् किमेतेषाम् बलम् भीमाभिरक्षितम्।
अयमेषु च सर्वेषु यथा भागमवस्थिताः
भीष्ममेवाभिरक्षन्तो भवन्तः सर्व एव हि।
तस्य सञ्जनयन् हर्षम् गुरुवृद्धपितामहः
सिंहनादम् विनद्यो चैः शङ्कम् दद्मौ
महतिष्यन्दने स्थितौ
माता पाण्डवत्यैवा दिव्यो शङ्कौ प्रदत्मतुः।
पाण्डजन्यम् ऋषिकेशः देव दत्तम् धनञ्जयः
पौण्ड्रम् दद्मौ महाशङ्कम् भीमकर्मा वृपोदरः।
अनन्तविजयम् राजा कुन्ते पुत्रो युधिष्ठिरः
नकुल सह देवश्च सुघोषमणिपुष्पकौ
काश्यश्च परमेश्वासः शिखण्डी च महारथः।
नृत्यद्युम्ना विराटश्च सात्यकी च पराजितः
द्रुपदो द्रौपदेयाश्च सर्वश पृथिवीपते
सौभद्रश्च महाबाहुः
शोकर्तरस्थानम् हृदयानि जगारयतु।
नभश्च पृथिवीम् चैवा तुमुलो व्यनुनादयम्
अथ व्यवस्थितान् दृष्ट्वा धातवाष्टान्तविद्वजः
प्रवृत्ते शस्त्रसम्पादे धनुरुद्यम्य पाण्डवः
ऋषिकेशम् तदा वाक्यम् यदमाहमधीपते।
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथम् स्थापयमेच्युता
यावदेता निरीक्षेहम् यो दुकामानवस्थिता
कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे
योजमानानलेक्षेहम् यये चैत्र समागतः।
भारतराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचि केशवः
सञ्जय उवाच एवमुक्तो ऋषिकेशः गुडाकेशेन भारत
तेन योनुभयोर्मध्ये स्थापयित्वा रथोत्त
दीक्षिताम्
उवाच पार्थपर्षेतान् समवेतान् कुरुमिति
तत्र तस्य स्थितम् पार्थः पित्रो लभतामः
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् सदा
ससुरान् सुहृदश्चैव सेनयोरुभयोरपि
तान् समेक्ष च कौन्तेयः सर्वान् बन्धूनवस्थितान्
कृपया परया दिष्टः विशेषन्निदमब्रवीत्
अर्जुन उवाच दृष्वेमं स्वजनं कृष्णायुष्टं समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
देवदुश्च शरीरे मे रोमहर्षश्च जायते
गाण्डीवं संसदे हस्ता पक्षैव परिगह्यते
न च शक्नोम्यवस्थातुं भ्रमतेव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयो न पश्यामि हत्वा स्वजनमाहवे
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
येषामध्ये काङ्क्षितं नः राज्यं भोग सुखानि च
तैमेव स्थिता युद्धे प्राणान् त्यक्त्वा धनानि च
आचार्या पितरः पुत्राः तथैव च पितामहः
मातुरा च सुरा पौत्राः ध्याला सम्बन्धिनस्तदा
एतान्नहं त्वमिच्छामि घ्रतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतो किं नु महे कृते
विहत्य धातरास्तानः का प्रीति स्याजनार्दन
पापमेवाश्रयेदस्मान् भर्तैतानाददायिनः
तस्मान्नार्हा वयं हन्तुं धातरास्तान् स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिनस्याम माधव
यद्यप्येते न पश्यन्ति लोभोपः चेतसः
रक्षय कृतं दोषं मित्रद्रोहे च पातकम्
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षय कृतं दोषं प्रकस्यद्विर्जनार्थना
कुलक्षये प्रणश्यन्ति कुलधर्मा सनातनाः
धर्मेणष्टे कुलं कृष्णम् अधर्मो विभवत्युत
अधर्मा विभवा कृष्णा प्रदुष्यन्ति कुलस्त्रियः
तेषु दुष्टाशु वा स्नेया जायते वर्ण शङ्करः
शङ्करो नरकायैव कुलघ्नानां कुलस्य च
अदन्ति पितरो येषां लुप्तपिण्डोदकक्रियाः
दोषैरेतै कुलघ्नानां वर्णशङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्मा च शाश्वताः
उत्सन्न कुलधर्माणां मनुष्या
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविशारयोगो नाम प्रथमोऽध्यायः मङ्गलस्ति कुरुक्षेत्ररणक्षोनिविहारिणे पादसारिरूपाय गीताचार्याय मङ्गलम् ॐ मङ्गलं गुरुदेवाय महनीय गुणात्मने सर्वलोकचरण्याय लक्ष्मी।